भक्तो भक्ति गुणावृते मुदमृता पूर्णे प्रसन्ने मनः कुंभे सांबतवांघ्रिपल्लवयुगं संस्थाप्य संवित् फलम् सत्वं मन्त्रमुदीरयन् निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् आम्नायाम्बुधिमादरेण सुमनः सङ्घाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमताम् नित्यानन्दसुधां निरन्तररमासौ भाग्यमातन्वते प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमो मोचकः चेतः पुष्करलक्षितो भवति चेदानन्दपाथो निधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशङ्गतम् कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते धीयन्त्रेण वचो घटेन कविता कुल्योपकुल्याक्रमैः आनीतैश्च सदाशिवस्य चरिताम्भोराशि दिव्यामृतैः हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेशभीतिः कुतः पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मामेव चः गाम्भीर्यं परिकापदङ्घनधृतिः प्राकार उद्यद्गुणस्तोमश्चाप्तबलं घनेन्द्रियचयोद्वाराणि देहस्थितः विद्यावस्तु समृद्धिरित्यखिलसामग्री समेते सदा दुर्गातिप्रियदेव मामकमनो दुर्गे निवासं कुरु मा गच्छत्वमितस्ततो गिरिशभो मय्येव वासं कुरु स्वामिन्नादिकिरातमामकमनः कान्तादसीमान्तरे वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादयः तान् हत्वा मृगया विनोदरुचिता लाभञ्च सम्प्राप्स्यसि। करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोस्तजन्तुः गिरिशो विशदाकृतिश्च चेतः कुहरे पञ्चमुखोऽस्ति मे कुतोभिः। छन्दः शाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनिखेदभेदिनि सुधासारैः फलैर्दीपिते। चेतः पक्षिशिखामणेत्यजवृथा सञ्चारमन्यैरलम् नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु। आकीर्णेन खराजिकान्तिविभवैरुद्यत्सुधावैभवैः आदौ तेऽपि च पद्मरागललितेऽहं सौरजैराश्रिते। नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु। स्थित्वा मानसराजहं स गिरिजानाथाङ्घ्रिसौधान्तरे शम्भुध्यानवसन्तसङ्गिनि हृदा रामेघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालाश्रिताः। दीप्यन्ते गुणकोरकाजपवचः पुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संविफलाभ्युन्नतिः। नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयम् स्वच्छं सद्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् शम्भुध्यानसरोवरं व्रजमनोऽहं सावतं सस्थिरम् किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि। आनन्दामृतपूरिताहरपदाम्भोजालवालोद्यता धैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता। उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्म संवर्धिता। सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्थानान्तराधिष्ठितम् सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् भोगीन्द्राभरणं समस्तसुमनः पूज्यं गुणाविष्कृतम् सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् भृङ्गिच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवाह्लादो नादयुतो महासितवपुः पञ्चेषु नाचादृतः सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनोराजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः। कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठम् विद्यासस्य फलोदजाय सुमनः संसेव्यमिच्छाकृतिम् नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलम् शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः आकाशेन शिखी समस्तफणिनां नेत्राकलापीनतानुग्राहि प्रणवोपदेशनिनदैः के कीर्तियोगीयते श्यामां शैलसमुद्भवाङ्घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकन्तं नीलकण्ठं भजे सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूता न कध्वानो वारिदगर्जितं दिविशदां दृष्टिच्छटा चञ्चला भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरीशिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे आद्यायामि ततेजसे श्रुतिपदैर्वेद्याय साध्यायते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ध्येयायाखिलयोगिभिः सुरगणैर्ज्ञेयाय मायाविने प्रवसंभ्रमाय जटिने सेयं नतिशम्भवे नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिशम्भवे नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशय व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्वसर्वान्तरः तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् एको वारिजबान्धवः क्षितिनभो व्याप्तन्तमो मण्डलम् भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः वेद्यः किन्न भवस्यहो घनतरङ्कीदृग्भवेन्मत्तमः तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं च कोरस्तथा चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम्। रोधस्तो यहृतश्रमेण पतिकच्छायां तरोरुरुष्टितः भीतस्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् दीपं सन्तमसाकुलश्च शिखिनं सीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रजसुखं शम्भोः पदाम्भोरुहम् अङ्कोलं निजबीजसन्ततिरयः स्कान्तोपलं सूचिका साध्वी नैजविभुं लताक्षितिरुहं सिन्धुः सरिद्वल्लभम् प्राप्नोतीह यथा तथा पशुपते पादारविन्दद्वयम् चेतो वृत्तिरुपेत्यतिष्ठति सदा सा भक्तिरित्युच्यते आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्चादनम् वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः रुद्राक्षैर्भसितेन देववपुषो रक्षां भवद्भावना पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतं सायते वृक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनम् भूभृत्पर्यटनं नमः सुरशिरः कोटीरसङ्घर्षणम् कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितम् मच्चेतो मणिपादुका विहरणं शम्भो सदाङ्गीकुरु वृक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत् दीपकलिका नीराजनं कुर्वते दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितम् तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया बहुविधपरितोषबाष्पूरस्फुटपुलकाङ्कितचारुभोगभूमिम् चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीं ಹೃದಯ ಪಶುಪತೆ ಸುಪುಣ್ಯಪಾಕಂ ಮಮ ಪರಿಪಾಲಯ ಭಕ್ತಿ ಧೇನುರೇಕಾಂ ಜಡತಾ ಪಶುತಾ ಕಲಂಕಿತಾ ಕುಟಿಲಚರತ್ವಂಚ ನಾಸ್ತಿ ಮೈ ದೇವಾ ಅಸ್ತಿ ಯದಿ ರಾಜಮೌಲೇ ಭವದಾಭರಣಸ್ಯ ನಾಸ್ಮಿ ಕಿಂ ಪಾತ್ರಂ ಅರಹಸಿ ರಹಸಿ ಸ್ವತಂತ್ರ ಬುದ್ಧ್ಯಾ ಪರಿವಸಿತುಂ ಸುಲಭ ಪ್ರಸನ್ನ ಮೂರ್ತಿಃ ಅಗಣಿತ ಫಲದಾಯಕ ಪ್ರಭುರ್ಮೇ ಜಗದಧಿಕೋ ಹೃದಿ ರಾಜಶೇಖರೋಸ್ತಿ ಆರೂಢ ಭಕ್ತಿ ಗುಣ ಕಾಂಚಿತ ಭಾವಚಾಪಯುಕ್ತೈಃ ಶಿವಸ್ಮರಣ ಬಾಣಗಣೈರಮೋಘೈಃ ನಿರ್ಜಿತ್ಯ ಕಿಲ್ಬಿಷರಿಪೂನ್ ವಿಜಯೀ ಸುಧೀಂದ್ರಃ ಸಾನಂದಮಾವಹತಿ ಸುಸ್ಥಿರ ರಾಜಲಕ್ಷ್ಮೀ.